उतो हि वाम् दात्ना सन्धि पूर्वाजा पूरुभ्यस्तुसदस्यम् निदोषे क्षेत्रासान्ततुर्वधासाम् घनन्दस्युभ्यो अभिभूतिमुग्रम् उत वादिनम् पुरनिषिद्ध्वानन्दधिग्रामोदर्विश्वकृष्ण्यम् दिव्यम् सेनम् प्रोषितप्सु मासुम् सकृत्य वर्यो नृपतिनिन्वसूरम् यम् सेवनः प्रपते भद्रवन्तम् विश्वः पूर्वमदधिहर्षमाणः पद्भिर्गृध्यन्तम् मेधयम् न सूरम् रथतुलम् वाचामि भद्रजनन्तम् यस्मारुन्धानो गध्या समत्सु सनूतरश्चरति गोषु गच्छन् आविर्वेजीगो विदधा निजिक्षत्तिरो रतिम् पर्याप आयोः उदस्मैनम् वस्रमचिन्नताजुमनुक्रोधम् दीक्षितयो भरेषु नीचायमानम् च सूरिन्नस्येनम् सुमच्छायूथम् उत तस्मात् प्रथमः स ऋष्यन्निवे वेदिश्रेणीभिरधानाम् सजम् कृण्वानो जन्यो न सुध्वा रेणुम् रेलीहत्किरणम् ददस्वान् उतस्य वाजी सहूरिर्दा वासुश्रूषमाणस्तन्वासुमर्ये तुरम् यजेषु तुरजन् ऋजव्योधिब्रवोः कीरते रेणुवृञ्जन् उदस्मास्यतम् यतोरीभद्योर्विघायतो अभिजो भयन्ते यदा सहस्रमभिषीमयोधीद्दुर्वत्वस्मा भवति भीमरिञ्जन् उदस्मास्य पनयन्ति जनाः ज्योतिम् कृष्टिप्रो अभिभूतिमासोः उदैनमावः समिते वियन्तः परादधिक्रासरत्सहस्रैः आदधिक्रासवासा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्तदान सहस्रसा स दशा भाज्यर्वाः पृणक्तुमध्वासमिमावचांसि